नमस्सर्वेभ्यः अद्य कृदन्तवर्गे त्रयोदशः पाठः जुलैमासस्य प्रथमः दिनाङ्कः अद्य वयं तव्यप्रत्ययस्य परिचयं प्राप्य रूपाणि अपि जानीमः आदौ मङ्गलम् योऽन्तः प्रविश्य ममवाचमिमां प्रसुप्ताम् सञ्जीवयत्यखिलशक्तिधरस्वधाम्ना अन्यांश्च हस्तचरणश्रवणत्वगादीन् प्राणान्नमो भगवते पुरुषाय तुभ्यम् गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमम् शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो कृदन्तवर्गे अस्माभिः एतावता चत्वारः कृत्प्रत्ययाः अधीताः प्रथमः आसीत् ल्युट् प्रत्ययः रूपेषु अन इति श्रूयते अयं भावार्थकः प्रत्ययः अर्थात् क्रियां बोधयति रूपाणि सर्वदा नपुंसकलिङ्गे एव भवन्ति प्रायेण इत्युक्ते भावार्थकस्य ल्युडन्तस्य रूपाणि नपुंसकलिङ्गे एव भवन्ति सर्वेषु वचनेषु सर्वासु च विभक्तिषु प्रयोगः कर्तुं शक्यते भिन्नेभ्यः धातुभ्यः ल्युट् प्रत्ययस्य योजने प्रधानतया अंशद्वयं स्मर्तव्यम् एकं णत्वम् यत्र यत्र धातौ रेफः षकारो वा विद्यते तत्र णत्वस्य सम्भवः अस्ति कुत्र णत्वं भवति कुत्र न भवति इति ज्ञातव्यम् पुनश्च गुणः इगन्तानाम् अङ्गानां गुणः भवति यत्र उपधायां लघुः इक् वर्णः अस्ति तत्रापि गुणः भवति गुणेनैव रूपसिद्धिः ल्युट् प्रत्यये तेन पठनं लेखनं गमनं करणम् इत्यादीनि रूपाणि सिद्धानि तेषां प्रयोगः अपि दृष्टः द्वितीयः प्रत्ययः आसीत् अनीयर् प्रत्ययः अनीय इति रूपे दृश्यते कर्मवाचकः अयं प्रत्ययः अर्थात् सर्वदा अनीयर् प्रत्ययान्तशब्दः कर्मणा सह कर्मपदेन सह अन्वयं प्राप्नोति तेन सह विद्यालयः अर्थाः अपि भासन्ते विधिः कामचारः अनन्तरम् अर्हः शक्यः इत्यादयः अर्थाः तत्र भासन्ते त्रिषु लिङ्गेषु अपि अनीयर् प्रत्ययान्तस्य प्रयोगः भवति कर्मणः विशेषणत्वेन प्रयोगः पुनश्च सर्वासु विभक्तिषु सर्वेषु च वचनेषु भवन्त्येव तत्रापि रूपसिद्धौ गुणः णत्वम् इति अंशद्वयं मनसि निधातव्यम् ल्युट् प्रत्ययस्य यथा रूपाणि भवन्ति तथैव अनीयर् प्रत्ययन्तस्यापि रूपाणि भवन्ति भेदः नास्ति सो देर् इस् नो डिफ्रेन्स् एनिवेर् इन् द फार्म्स् बिट्वीन् अन अण्ड् अनीय That is, you use ana in one case and aniya, or ana and aniya. So, pathaniyam, lekhaniyam, gamaniyam, karaniyam, ityadi drishtam. So, ubhayatra, napumsakalinge, hraswakarantaha shabdaha. Aniyar pratyayantasya, pullinge, apyakarantaha. Pathaniyaha, lekhaniyaha, gamaniyaha, karaniyaha. Strilinge, akarantashabdaha bhavati. पठनीया लेखनीया गमनीया करणीया इत्यादि रीत्या तृतीयः प्रत्ययः आसीत् नुल् अक न तु अक् अक इति रूपे दृश्यते अयं कर्तृवाचकः प्रत्ययः सो क्रियायाः कर्तारं बोधयति त्रिषु लिङ्गेषु सर्वविभक्तिवचनेषु प्रयोगः भवति रूपसिद्धौ वृद्धिः अत्र प्रामुख्येन भवति ಯಥಾ ಇಗಂತಾನಾಂ ಅಂಗಾನಾಂ ವೃದ್ಧಿ ಭವತಿ. ನೀ ಇತಿ ಧಾತು, ಲ್ಯುಡಂತೆ ನಯನಂ ಅನಿಯರಿ ನಯನೀಯಂ ಕಿಂತುಣ್ವಲಿ ನಾಯಕಃ, ನೈ ಅನಂತರ ಮಾಯಾದೇಶಃ ನಾಯಕಃ ಕಾರಕಃ ಭಾವಕಃ ಇತ್ಯೇವಂ ದೀರ್ಘಃ. ಏವಮೇವ ಅಕಾರಃ ಉಪಧಾಯಾಂ ಯತ್ರ ವದ್ಯತೆ ಯತ್ರ ವಿದ್ಯತೆ, ಯಥಾ ಪಠ ಧಾತೋಃ ಪಾಠಕಃ, ಚರ್ ಧಾತೋಃ ಚಾರಕಃ ಇತಿ. ಇಗಂತಾನಾಂ ಹ್ರಸ್ವ ಅಕಾರೋಪಧಾನಾಂ ಚ ಧಾತೂನಾಂ ವೃದ್ಧಿಃ ಭವತಿ. ಅನ್ಯ ಧಾತೂನಾಂ ಹ್ರಸ್ವ ಇಕ್ ವರ್ಣಃ ಇ ಊರುಲ್ ಇತ್ಯೇತೆ ಉಪಧಾಯಾಂ ಸಂತಿ ಚೇತ್ ತತ್ರ ಗುಣಃ ಭವತಿ. ಯಥಾ ಲಿಖ ಲೇಖಕಃ, ಮುದ ಮೋದಕಃ, ನೃತ ನರ್ತಕಃ ಇತ್ಯಾದಿ. ಅತಃ ವೃದ್ಧಿಃ ಭವತಿ, ಯತ್ರ ವೃದ್ಧಿಃ ನಾಸ್ತಿ ತತ್ರ ಗುಣಃ ಭವತಿ ಇತಿ. ರೂಪಸಿದ್ಧೌ ಅಂಶದ್ವಯಂ ಸ್ಮರ್ತವ್ಯಂ, ಪಾಠಕಃ ಲೇಖಕಃ ಗಾಮಕಃ ಕಾರಕಃ ಇತ್ಯಾದೀನಿ ರೂಪಾಣಿ ಭವಂತಿ. ಸ್ತ್ರೀಲಿಂಗೇ ಪಾಠಿಕಾ ಇಕಾ ಇತಿ ಆಕಾರಾಂತಂ ಭವತಿ, ಕಕಾರಾತ್ ಪೂರ್ವಂ ಇಕಾರಶ್ಚ ಶ್ರೂಯತೆ ಕಾರಿಕಾ ಲೇಖಿಕಾ ಇತ್ಯಾದಿ. ನಪುಂಸಕಲಿಂಗೇ ತು ಪುನಃ ಹ್ರಸ್ವಾಕಾರಾಂತಂ ಪಾಠಕಂ ಲೇಖಕಂ ಕಾರಕಂ ಇತ್ಯಾದಿ ಭವತಿ. ಏತೇ ತ್ರಯಃ ಅಪಿ ಪ್ರತ್ಯಯಃ ಲ್ಯುಟ್ ಅನಿಯರ್ ನುಲ್ ಇತಿ. ಪ್ರತ್ಯಯಸ್ಯ ಆದೌ ಅಜ್ವರ್ಣಃ ಅಸ್ತಿ ಅನ ಅನೀಯ ಅಕ ಇತಿ. ಅಂತೇಪಿ ಹ್ರಸ್ವಕಾರಾಂತಃ ಏವ ಶಬ್ದಃ, ಅತಃ ಉಭಯಥಾ ಅಪಿ ಕ್ಲೇಶಃ ನಾಸ್ತಿ. ಚತುರ್ಥಃ ಪ್ರತ್ಯಯಃ ಅಧೀತಃ ತುಮುನ್ ಪ್ರತ್ಯಯಃ, ಪ್ರಯೋಗೇ ತುಮ್ ಇತಿ ಶ್ರೂಯತೆ. ಅಯಂ ಪ್ರತ್ಯಯಃ ಕ್ರಿಯಾಂ ಬೋಧಯತಿ ವಿಶಿಷ್ಟೇಷು ಪ್ರಸಂಗೇಷು. ಉದ್ದೇಶ್ಯಭೂತಾಯಾಃ ಕ್ರಿಯಾಯಾಃ ತುಮುನ್ ಭವತಿ. ಇಚ್ಛತ್ಯಾದಿಭಿಃ ಪ್ರಯೋಗೇ ತದ್ವಿಷಯಸ್ಯ ಇಚ್ಛತಿ ಜಾನಾತಿ ಶಕ್ನೋತಿ ಅರ್ಹತಿ ಇತ್ಯಾದೀನಾಂ ಪ್ರಯೋಗೇ ತೇಷಾಂ ವಿಷಯಸ್ಯ ವಿಷಯಭೂತಾಯಾಃ ಕ್ರಿಯಾಯಾಃ ತುಮುನ್ ಭವತಿ. ಸಮರ್ಥಃ ನಿಪುಣಃ ಕಾಲಃ ಸಮಯಃ ಇತ್ಯಾದೀನಾಂ ಸುಬಂತಾನಾಂ ಪ್ರಯೋಗೇ ಅಪಿ ತದ್ಯುಕ್ತಾಯಾಃ ಕ್ರಿಯಾಯಾಃ ತುಮುನ್ ಭವತಿ. ತುಮುನ್ನಂತಂ ಅವ್ಯಯಂ ಭವತಿ, ಅತಃ ಏಕಮೇವ ರೂಪಂ ಇತಿ ಸಾರಲ್ಯಂ. ಯತ್ಕಿಮಪಿ ಲಿಂಗಂ ವಚನಂ ವಿಭಕ್ತಿರ್ವಾ ಭವತು ಏಕಮೇವ ರೂಪಂ ಭವತಿ. ಕಿಂತು ಅತ್ರ ರೂಪೇ ಏಕಃ ಅಂಶಃ ಸ್ಮರ್ತವ್ಯಃ, ಅಯಂ ಇಟ್ ಯೋಗ್ಯಃ ಪ್ರತ್ಯಯಃ. ಪೂರ್ವಂ ದೃಷ್ಟಾಃ ತ್ರಯಃ ಅಜಾದಯಃ ಸ್ವರಾದಿಃ ಪ್ರತ್ಯಯಃ ಇಡಾಗಮಂ ನ ಪ್ರಾಪ್ನೋತಿ. ಅಯಂ ಹಲಾದಿಃ ತಕಾರಃ ಅಸ್ತಿ ಅತಃ ಇಡಾಗಮಂ ಪ್ರಾಪ್ನೋತಿ. ರೂಪಸಿದ್ಧೌ ಇಟ್ ವಿಷಯೇ ಸ್ಮರ್ತವ್ಯಂ. ಯೇ ಸೇಟ್ ಧಾತವಃ ತೇಷಾಂ ಇಟ್ ಭವತಿ, ಯೇ ವೇಟ್ ಧಾತವಃ ತೇಷಾಂ ವಿಕಲ್ಪೇನ ಇಟ್ ಭವತಿ. ಅನಿಟ್ ಧಾತೂನಾಂ ಇಡಾಗಮಃ ನ ಭವತಿ ಇತಿ ಸ್ಮರ್ತವ್ಯಂ. ದ್ವಿತೀಯಃ ಅಂಶಃ ಗುಣಃ ಭವತಿ ಸರ್ವೇಷಾಂ ಧಾತೂನಾಂ. ಸರ್ವೇಷಾಂ ಇತ್ಯುಕ್ತೆ ಯೇ ಯೇ ಗುಣಂ ಪ್ರಾಪ್ತುಂ ಅರ್ಹಂತಿ. ಇಗಂತಃ ಧಾತವಃ ಉಪಧಾಯಾಂ ಲಘು ಇಕ್ ವರ್ಣಾಃ ಸಂತಿ ಚೇತ್ ತೇಷಾಂ ಗುಣಃ ಭವತಿ. ಪುನಶ್ಚ ಅನಿಟ್ ಧಾತವಃ ಸಂತಿ ಚೇತ್ ಹಲ್ ಸಂಧಿಃ ಭವತಿ. ಧಾತೋಃ ಅಂತೆ ಏಕಃ ಹಲ್ ವ್ಯಂಜನಂ ಅಸ್ತಿ, ಪುನಃ ಪ್ರತ್ಯಯಸ್ಯ ಆದೌ ಅಪಿ ವ್ಯಂಜನಂ ಅಸ್ತಿ, ಅತಃ ಏತಯೋಃ ಹಲ್ ಸಂಧಿಃ ಭವತಿ. ಪಠಿತುಂ ಲೇಖಿತುಂ ಗಂತುಂ ಕರ್ತುಂ ಇತ್ಯಾದೀನಿ ರೂಪಾಣಿ ಅಸ್ಮಾಭಿಃ ದೃಷ್ಟಾನಿ. ಅತ್ರ ಏಕಃ ಪ್ರಶ್ನಃ ಕ್ರಿಯತೆ, ನುಲ್ಲಿತಿ ಅಕ್ ಅಥವಾ ಅಕ ಇತಿ. ಅಕ ಇತ್ಯೇವ ಪಾಠಕ ಲೇಖಕ ಇತಿ ಹ್ರಸ್ವ ಅಕಾರಾಂತಂ ಪ್ರಾತಿಪದಿಕಂ ಏವ ಭವತಿ ನುಲ್ಲಂತೆ. Okay, so that was a typing error which I will correct. So nul ityasya aka ityeva bhavati. Okay, సో అకారాంతం ప్రాతిపదికం, సో తుమున్ మకారాంతం అవ్యయం భవతి. సో అద్య పంచమం ప్రత్యయం పశ్యామః. స్తవ్యత్ అథవా స్తవ్య ప్రత్యయః ఆదౌ కాంశ్చన ప్రయోగాన్ పశ్యామః. అనంతరం ప్రత్యయస్య విషయే జానీమః. ప్రియవాక్య ప్రదానేన సర్వే తుష్యంతి జంతవః, తస్మాత్ తదేవ వక్తవ్యం వచనే కా దరిద్రత ఇది ఏకం సుభాషితం. ప్రియవాక్య ప్రదానేన యద్వాక్యం శ్రోతుం ప్రియం భవతి, సో స్పీకింగ్ నైస్లీ, సో సర్వే జంతవః తుష్యంతి, సర్వేషాం జంతూనాం కేవలం మనుష్యాణాం ఏ ప్రాణినః భవంతి తేషామపి సంతోషః జాయతే, ప్రీత్యా సంభాషణం క్రియతే చేత్ సర్వేపి ప్రాణినః సంతోషం ప్రాప్నువంతి, తస్మాత్ తేన కారణేన తదేవ వక్తవ్యం అర్థాత్ ప్రియవాక్యమేవ వక్తవ్యం. వృథా రూక్షవచనానాం తీక్ష్ణవాక్యానాం కోపయుక్తవచనానాం ప్రయోగేణ కిమపి న సిద్ధ్యతి, అతః వచనే కా దరిద్రత, వాట్ ఇస్ ద పవర్టీ ఇన్ వర్డ్స్, సో వాట్ డు యు లూజ్ బై స్పీకింగ్ వెల్. Okay, so if you have to pay something, it's okay, but you don't have to pay anything for speaking well. Ataha tadeva vaktavyam, atra vaktavyam ityuchyate that should be said, priyavakyam vaktavyam ityartha. So datavyam bhoktavyam sati vibhave sanchayo na kartavyah pashyeha madhukarinam sanchitam artham harantyanye iti పంచతంత్రస్య హితోపదేశస్య వా, సో ఈదర్ ఆఫ్ దెమ్ తత్ర విద్యమానం ఇదం సుభాషితం. సతి విభవే, విభవః నామ అర్థాగమః, యత్ర ధనలాభః అస్తి తత్ర కిం కర్తవ్యం, దాతవ్యం భోక్తవ్యం, ఏకం దానం కరణీయం అథవా అస్మాకం భోగార్థం ఉపయోక్తవ్యం, సంచయః న కర్తవ్యః కేవలం ధనస్య సంగ్రహ న కర్తవ్యః, సో ఈదర్ వి స్పెండ్ ఇట్ ఆన్ అదర్ ఆర్ సెల్స్ ఆర్ గివ్ ఇట్ అవే ఫార్ అదర్స్, సో ఈదర్ ఆఫ్ దెమ్ ఇస్ ఫైన్, బట్ ఇట్ షుడ్ నాట్ బి సింప్లీ హోర్డెడ్, సంచయః న కర్తవ్యః. పశ్య ఇహ మధుకరిణాం సంచితమర్థం, మధుకరిణాం సో ద హనీ బీస్ తేషాం సంచితం అర్థం, సో ద హనీ విచ్ దే వెరీ కేర్ఫుల్లీ కలెక్ట్ దే నీదర్ యూజ్ ఇట్ ఫర్ దెమ్సెల్స్ నార్ డు దే గివ్ ఇట్ అవే, సో దే కీప్ ఇట్ కలెక్టెడ్ ఇన్ దేర్ హనీ కోమ్స్, అన్యే హరంతి సో సంబడి ఎల్స్ టేక్ ఇట్ అవే టేక్స్ ఇట్ అవే. సో దిస్ ఇస్ వన్ కామన్ ఎగ్జాంపుల్ ఇన్ సంస్కృత్ లిటరేచర్ ఫార్ ద ఇంపార్టెన్స్ ఆఫ్ నాట్ హోర్డింగ్, సో వన్ థింగ్ ఫ్రమ్ నేచర్. సో దాతవ్యం భోక్తవ్యం సతి విభవే సంచయః న కర్తవ్యః, దాతవ్యం మస్ట్ బి గివన్ ఆర్ భోక్తవ్యం షుడ్ బి ఎంజాయ్డ్, యూ షుడ్ ఈదర్ యూజ్ ఇట్ ఫర్ యువర్ ఎంజాయ్మెంట్ ఆర్ గివ్ ఇట్ అవే, సంచయః న కర్తవ్యః, తత్ర దాతవ్యం భోక్తవ్యం కర్తవ్యః ఇత్యాది తవ్య ప్రత్యయాంతాని పదాని. So there is a very similar subhashita in the Niti Shatakam. Danam bhogaha nashas tisro gatayo bhavanti vittasya yona radati nabhunkte tasya tritiya gatir bhavati. So vittasya dhanasya tisraha gatayaha bhavanti. So three possibilities. Danam bhogaha nashaha. So giving it away, enjoying it or destroying it. యహ న దదాతి న భుంక్తే, సో హీ హూ నీదర్ గివ్స్ ఇట్ అవే నార్ ఎంజాయ్స్ ఇట్ తస్య తృతీయా గతిర్భవతి, సో దెన్ దట్ ఓన్లీ ద థర్డ్ ఫేట్ ఇస్ పాసిబుల్ విచ్ ఇస్ ద మనీ విల్ గెట్ డెస్ట్రాయిడ్ సమ్ టైమ్. అస్తు, అతః ఏతాని పదాని పఠామః. పఠితవ్యం లేఖితవ్యం శిక్షితవ్యం ರಕ್ಷಿತವ್ಯಂ, ಹಸಿತವ್ಯಂ, ಭವಿತವ್ಯಂ, ಗಂತವ್ಯಂ, ಕ್ರೇತವ್ಯಂ, ಕರ್ತವ್ಯಂ, ವಕ್ತವ್ಯಂ, ದ್ರಷ್ಟವ್ಯಂ, ಶ್ರೋತವ್ಯಂ. ಸೊ ಅತ್ರ ಸರ್ವತ್ರ ತವ್ಯ ಇತಿ ಶ್ರೂಯತೆ. ಅಯಂ ಪ್ರತ್ಯಯಃ ವಿಧ್ಯರ್ಥಕಃ ಅಥವಾ ಪ್ರೇರಣಾರ್ಥಕಃ. ಸೊ ಪ್ರಾಯೇಣ ಸಂಥಿಂಗ್ ದಟ್ ಮಸ್ಟ್ ಬಿ ಡನ್ ಇತ್ಯರ್ಥೆ. ಅನ್ಯೇಪಿ ಅರ್ಥಾಃ ಸಂತ್ಯೇವ. ಸೊ ಅಯಂ ಅಸ್ಮಾಕಂ ಪಂಚಮಃ ಪ್ರತ್ಯಯಃ. ವಸ್ತುತಃ ಪಾಣಿನೀಯ ವ್ಯಾಕರಣೆ ಪ್ರತ್ಯಯದ್ವಯಂ ಉಚ್ಯತೆ ಪಾಣಿನ. ತವ್ಯತ್ ತವ್ಯ ಅನೀಯರಃ ಇತಿ ಸೂತ್ರಂ. ಸೊ ತವ್ಯತ್ ಇತಿ ಏಕಃ ಪ್ರತ್ಯಯಃ, ತವ್ಯ ಇತಿ ಏಕಃ ಪ್ರತ್ಯಯಃ. ಉಭಯತ್ರಾಪಿ ರೂಪೇ ತವ್ಯ ಇತ್ಯೇವ ಶ್ರೂಯತೆ. ರೂಪೇ ಕೋಪಿ ಭೇದಃ ನಾಸ್ತಿ. ಓಕೆ, ಸೊ ದೇರ್ ಇಸ್ ಅಬ್ಸಲ್ಯೂಟ್ಲಿ ನೋ ಡಿಫರೆನ್ಸ್ ಇನ್ ಫಾರ್ಮ್ಸ್ ಆರ್ ಇನ್ ಯೂಸೇಜ್ ಬಿಟ್ವೀನ್ ದೋಸ್ ಟು. ದ ಓನ್ಲಿ ಡಿಫರೆನ್ಸ್ ದಟ್ ಎಕ್ಸ್ಟ್ರಾ ತಕಾರ ತವ್ಯತ್ ಇತ್ಯತ್ರ ತಕಾರೇಣ ಸ್ವರೇ ಭೇದಃ ಕ್ರಿಯತೆ. ಸೊ ದ ಸ್ವರ ಇನ್ ದ ವೇದಸ್, ಇನ್ ದ ವೇದಿಕ್ ಪ್ರಯೋಗಸ್, ತಿತ್ ಸ್ವರಿತಂ. ಸೊ ಇಫ್ ದ ವರ್ಡ್ ಇಸ್ ತಿತ್, ದಟ್ ಇಸ್ ಹ್ಯಾವಿಂಗ್ ದಿಸ್ ತಕಾರ ಆಸ್ ಇತ್, ದೆನ್ ಇಟ್ ವಿಲ್ ಗೆಟ್ ಎ ಸ್ವರಿತ ಸ್ವರ. ಓಕೆ, ಸೊ ದಟ್ ಇಸ್ ದ ಓನ್ಲಿ ಪ್ರಯೋಜನ. ಸೊ ಫಾರ್ ಅಸ್ ಇನ್ ದ ಕಾಮನ್, ಐ ಮೀನ್ ವೆನ್ ವಿ ಆರ್ ಯೂಸಿಂಗ್ ಇಟ್ ಫಾರ್ ಆರ್ ಲೌಕಿಕ ಭಾಷಾ, ಲೌಕಿಕ ವ್ಯವಹಾರ, ದೇರ್ ಇಸ್ ನೋ ಡಿಫರೆನ್ಸ್ ಬಿಟ್ವೀನ್ ತವ್ಯತ್ ಅಂಡ್ ತವ್ಯ. ಓಕೆ, ಸೊ ವಿ ಟ್ರೀಟ್ ಇಟ್ ಆಸ್ ಅ ಸಿಂಗಲ್ ಪ್ರತ್ಯಯ ವಿಚ್ ಇಸ್ ತವ್ಯ. ತವ್ಯ ಪ್ರತ್ಯಯ ಇತ್ಯೇವ ಉಚ್ಯತೆ. ಏಕ ಏವ ಪ್ರತ್ಯಯ ಇತಿ ದೃಷ್ಟ್ಯಾ ವಯಂ ಪಠಾಮಃ. ಯತೋ ಹಿ ಸ್ವರೇ ಭೇದಃ ಅಸ್ಮಾಕಂ ಲೌಕಿಕ ವ್ಯವಹಾರೇ ನ ಭವತಿ. ಅಯಮಪಿ ಸಾಧಾರಣಃ ಪ್ರತ್ಯಯಃ, ಅರ್ಥಾತ್ ಸರ್ವೇಭ್ಯಃ ಧಾತುಭ್ಯಃ ತವ್ಯ ಪ್ರತ್ಯಯಸ್ಯ ಯೋಜನಂ ಭವತಿ. ವಿಧ್ಯರ್ಥಕಃ ಪ್ರತ್ಯಯಃ, ತವ್ಯ ಪ್ರತ್ಯಯಸ್ಯ ವಿಷಯೇ ಏಕೇನ ವಾಕ್ಯೇನ ವಕ್ತವ್ಯಂ ಚೇತ್ ಬಹು ಸರಳಂ. ಪ್ರಯೋಗಃ ಅನೀಯರ್ ಪ್ರತ್ಯಯ ಅಂತವತ್. ಇತ್ಯುಕ್ತೆ ಯೇ ಯೇ ಅರ್ಥಾಃ ಅನೀಯರ್ ಪ್ರತ್ಯಯಸ್ಯ ಭವಂತಿ, ಯೇಷು ಅರ್ಥೇಷು ಕ್ರಿಯತೆ ಯಥಾ ಲಿಂಗಭೇದಃ ವಿಭಕ್ತಿಭೇದಃ ಇತ್ಯಾದಿ ಸರ್ವಮಪಿ ಅನೀಯರ್ ಪ್ರತ್ಯಯ ಅಂತವತ್ ಭವತಿ. ರೂಪಾಣಿ ತು ತುಮುನ್ ಪ್ರತ್ಯಯ ಅಂತವತ್ ಭವಂತಿ. ಓಕೆ, ಸೊ ನೋಯಿಂಗ್ ದಟ್ ದೇರ್ ಇಸ್ ನಥಿಂಗ್ ನ್ಯೂ ದಟ್ ವಿ ಆರ್ ಗೋಯಿಂಗ್ ಟು ಲರ್ನ್ ಇನ್ ತವ್ಯ. ಓಕೆ, ಸೊ ಆಲ್ ಯೂಸೇಜ್ ಇಸ್ ಕಂಪ್ಲೀಟ್ಲಿ ಲೈಕ್ ಅನಿಯರ್. ಸೊ ವೇರ್ ಎವರ್ ಯು ಯೂಸ್ ಅನಿಯರ್, ಯು ಕ್ಯಾನ್ ರೀಪ್ಲೇಸ್ ಇಟ್ ವಿತ್ ತವ್ಯ. ಓಕೆ, ಸೊ ದೇರ್ ಇಸ್ ಅಬ್ಸಲ್ಯೂಟ್ಲಿ ನೋ ಡಿಫರೆನ್ಸ್. ಸೊ ದ ಸೇಮ್ ಕೈಂಡ್ ಆಫ್ ಯೂಸೇಜ್ ಯು ವಿ ಸಾ ದಟ್ ವಿಧ್ಯರ್ಥೆ ಭವತಿ, ಶಕ್ಯಾರ್ಥೆ ಅರ್ಹಾರ್ಥೆ ಸರ್ವತ್ರಾಪಿ ಯೇ ಯೇ ಅರ್ಥಾಃ ಅನಿಯರ್ ಪ್ರತ್ಯಯಾಂತಸ್ಯ ತೇ ಸರ್ವೇಪಿ ಅರ್ಥಾಃ ತವ್ಯ ಪ್ರತ್ಯಯಾಂತಸ್ಯಾಪಿ ಭವಂತಿ. ಅಯಮಪಿ ಕರ್ಮವಾಚಕಃ ಪ್ರತ್ಯಯಃ, ಕರ್ಮಪದಸ್ಯ ವಿಶೇಷಣತ್ವೇನ ಪ್ರಯೋಗಃ ಭವತಿ. ತ್ರಿಷು ಲಿಂಗೇಷು ರೂಪಾಣಿ ಭವಂತಿ, ತೇಷಾಂ ಪ್ರಯೋಗಃ ಸರ್ವಾಸು ವಿಭಕ್ತಿಷು ವಚನೇಷು ಸರ್ವಮಪಿ ಭವತಿ. ಸೊ ವಾಟ್ ಎವರ್ ವಿ ಸ್ಟಡೀಡ್ ಫಾರ್ ದ ಯೂಸೇಜ್ ಪಾರ್ಟ್ ಆಫ್ ಅನಿಯರ್ ವಿಲ್ ಹೋಲ್ಡ್ ಗುಡ್ ಫಾರ್ ತವ್ಯ ಆಲ್ಸೋ. ಬಟ್ ದ ಡಿಫರೆನ್ಸ್ ಇಸ್ ಅನಿಯರ್ ಇತಿ ಅ ಇತಿ ಸ್ವರಾದಿ ಪ್ರತ್ಯಯಃ, ತವ್ಯ ಇತಿ ತು ಹಲಾದಿ ಪ್ರತ್ಯಯಃ, ಅತಃ ಅತ್ರ ಇಡಾಗಮಃ ಭವತಿ. ಸೊ ತವ್ಯ ಇಸ್ ಲೈಕ್ ತುಮುನ್. ಸೊ ಆಲ್ ಫಾರ್ಮ್ಸ್ ನೋ ಎಕ್ಸೆಪ್ಷನ್ಸ್, ಆಲ್ ಫಾರ್ಮ್ಸ್ ಆರ್ ಲೈಕ್ ತುಮುನ್. ಸೊ ಇನ್ಸ್ಟೆಡ್ ಆಫ್ ತುಮ್ ವಿ ಯೂಸ್ ತವ್ಯ, ಯು ಹ್ಯಾವ್ ದ ಫಾರ್ಮ್ಸ್ ಅಂಡ್ ಯು ಯೂಸ್ ದೆಮ್ ವೆರ್ ಎವರ್ ಯು ಯೂಸ್ ಅನಿಯರ್. ಸೊ ದಟ್ ಇಸ್ ಆಲ್ ಇಸ್ ದೇರ್ ಅಬೌಟ್ ತವ್ಯ. ವಯಂ ಪಶ್ಯಾಮಃ ಪ್ರಯೋಗಾನಪಿ ಪಶ್ಯಾಮಃ ರೂಪಾಣ್ಯಪಿ ಪಶ್ಯಾಮಃ ಕಿಂತು ಸ್ಮರ್ತುಂ ಏತದೇವ ಸ್ಮರ್ತವ್ಯಂ. ತುಮುನ್ ತುಮುನ್ ಅಂತವದ್ ರೂಪಾಣಿ ಭವಂತಿ, ಅನೀಯ ಪ್ರತ್ಯಯ ಅಂತವತ್ ಪ್ರಯೋಗ ಭವತಿ. ಪ್ರಥಮ ಅಭ್ಯಾಸ ಸಂಯೋಜಯತ. ಅತ್ರ ಅನಿಯರ್ ತವ್ಯ ಪ್ರತ್ಯಯ ಅಂತ ಶಬ್ದಾ ಸಂತಿ ನಾಮಪದೇನ ಸಹ ಯೋಜನೀಯಂ. ಯೇ ವಕ್ತುಮಿಚ್ಛಂತಿ ಕೃಪಯ ಹಸ್ತಾನ್ ಉತ್ತೋಲಯಂತು. ಭಾಸ್ಕರನ್ ಮಹೋದಯ
ಪುಸ್ತಕಂ ಪಠಿತವ್ಯಂ.
ಆದೌ ನಾಟಕಂ ಇತಃ ಆರಂಭ ಕುರ್ಮಃ, ಯತೋ ಹಿ ಮಮ ಉತ್ತರಾಣಿ ತೇನ ಕ್ರಮೇಣ ಸಂತಿ ಅತಃ.
ಓಕೆ ಓಕೆ. नाटकं द्रष्टव्यं
नाटकं द्रष्टव्यं हा
पुस्तकं पठितव्यं सॉरी संगीतं श्रोतव्यं
संगीतं श्रोतव्यं
पुस्तकं पठितव्यं
पुस्तकं पठितव्यं सॉरी द दिस वन हैज एन एरर पुस्तकं पठितव्यं इत्येव युक्तं हा नेक्स्ट
फलं
हा
कर्तव्यं
फलं
कर्तव्यं
कर्तव्यं इत्यस्य टु बी ओन इत्यर्थः फलं किं कुर्मः
वक्तव्यं
फलं फलं इज अ फ्रूट खादितव्यं
खादितव्यं
फलं खादितव्यं
वक्तव्यं
वस्त्रं
वस्त्रं धर्तव्यं
धर्तव्यं वस्त्रं धर्तव्यं
सत्यं वक्तव्यं
सत्यं वक्तव्यं करेक्ट सो जस्ट अ मोमेंट आई विल करेक्ट दैट वन
द्रष्टव्यं
सो नाटकं द्रष्टव्यं सो ड्रामा मस्ट बी सीन कैन बी सीन और इट कुड बी यू नो डिजर्व्स टू बी सीन इत्येते अर्थाः संगीतं श्रोतव्यं सो म्यूजिक टू बी हर्ड पुस्तकं पठितव्यं सो अ बुक टू बी रेड फलं खादितव्यं फ्रूट टू बी ईटन वस्त्रं धर्तव्यं सो क्लॉथ to be worn satyam vaktavyam so truth to be told so drashtavyam shrotavyam patitavyam khaditavyam dhartavyam vaktavyam ityete shabdaah tavya pratyayantah dvitiyah abhyasah tavya pratyayante parivartayata asma maya vidhiling lakare diyate so the active voice of see the aniyar tavya etc they are always passive prayogas because they are karma vachaka pratyayas right so it is always karmani prayoga or bhave so passive voice so the active voice of these if we have to use an active voice it would have be in using the vidhiling lakara so atra lakarasya roopam diyate तव्य प्रत्ययान्तं रूपं वक्तव्यं यथा स्नानं कुर्यात् इत्यस्ति तव्य प्रत्ययान्त रूपं किं भवति इति वक्तव्यम् रामप्रिया
आं भगिनि स्नानं कर्तव्यं
स्नातव्यम् इत्येव तस्य धातु स्नातव्यं
स्नातव्यम् भोजनं कुर्यात् भोक्तव्यं
भोक्तव्यं
स्मरणं कुर्यात् स्मर्तव्यं
स्मर्तव्यं सम्यक् धन्यवादः राज जोशी यू हैव टू अनम्यूट योरसेल्फ न श्रूयते यू आर म्यूटेड यू हैव टू क्लिक ऑन योर माइक्रोफोन आइकन टू अनम्यूट योरसेल्फ नो पद्मनाभन महोदय मेलितव्यं सम्यक्
पठितव्यं
पठनं कुर्यात् पठितव्यं
रक्षितव्यं
रक्षितव्यं रक्षणं कुर्यात् रक्षितव्यं ஹர்மந்தர் சிங் போல.
கந்தவ்யம்,
கந்தவ்யம், கச்சேத் கந்தவ்யம்,
ஹசேத் ஹசிதவ்யம்,
ஹசிதவ்யம். சமயக்
ஆச்சரித்தவ்யம்,
ஆச்சரித்தவ்யம். சமயக் வெங்கடராமன் ஐயர்
சலிதவ்யம்,
சாலயிதவ்யம்,
லப்தவ்யம்,
லப்தவ்யம்.
வர்தவ்யம்,
வர்தித்தவ்யம், வர்தித்தும் வர்தித்தவ்யம். சமயக் ஸ்நாதவ்யம், போக்தவ்யம், ஸ்மர்தவ்யம், மேலிதவ்யம், படித்தவ்யம், ரக்ஷிதவ்யம், கந்தவ்யம், ஹசிதவ்யம், ஆச்சரித்தவ்யம், க்ஷாலயிதவ்யம், லப்தவ்யம், வர்தித்தவ்யம் இதி ரூபாணி பவந்தி. சோ வி நோ தி ஜெனரல் ஃபார்ம்ஸ், ஆல் நோன் தாதுஸ் ஐ ஹோப். சோ அர்த்தஹ அவகதஹ ஏவ ஸ்யாத். சர்வேபி பிரசித்தாஹ தாதவஹ. தடேவ விதிலிங் பிரயோகே லுடந்தஸ்ய பிரயோகம் கர்த்தும் சக்யதே. ஸ்நானம் குர்யாத் ஸ்நாயாத் இத்யபி வக்தும் சக்யதே. சோ அஸ் வி ஹவ் சீன் ஹியர், சோ கச்சேத் ஹசேத் இதிவத் அத்ராபி கமனம் குர்யாத் ஹசனம் குர்யாத் இத்யபி வக்தும் சக்யம். சாக்ஷாத் தாதோஹ விதிலிங் ரூபமபி பிரயோக்தும் சக்யதே. பவிதவ்யம் இத்யஸ்ய அனியர் பிரத்யந்தம் ரூபம் கிம்? பவனீயம் இதி பவதி. தவ்ய பிரத்யந்தஸ்ய ரூபாணி கதம் பவந்தி? யதா மயா உக்தம் துமுன்னந்தேன துல்யானி. யதா துமுன் பிரத்யந்தஸ்ய ரூபாணி ததைவ தவ்ய பிரத்யந்தஸ்ய அபி பவந்தி. தாதும் தாதவ்யம், நேதும் நேதவ்யம், ஶ்ரோதும் ஶ்ரோதவ்யம், கர்த்தும் கர்த்தவ்யம், த்ரஷ்டும் த்ரஷ்டவ்யம், லப்தும் லப்தவ்யம், படித்தும் படித்தவ்யம், டயித்தும் டயித்தவ்யம், பவித்தும் பவித்தவ்யம், க்ரஹீத்தும் க்ரஹீத்தவ்யம், வரித்தும் வரித்தும் வரித்தவ்யம் வரித்தவ்யம், பிரார்த்தயித்தும் பிரார்த்தயித்தவ்யம். ஏவம் யதா யதா துமுன் பிரத்யந்தஸ்ய ரூபம் ததைவ தவ்யாந்தஸ்ய அபி ரூபம். ஓகே, சோ எவ்ரிவேர் ரிப்ளேஸ் த தும் வித் தவ்ய, து வித் தவ்ய. சோ இஃப் தெர் இஸ் டு இட் பிகம்ஸ் தவ்ய, இஃப் தெர் இஸ் து இட் பிகம்ஸ் தவ்ய. சர்வே சந்தய, பிகாஸ் இட் இஸ் த சேம் லெட்டர், த சந்தி டிபெண்ட்ஸ் ஆன் த லெட்டர், இட் இஸ் தக்காரா இன் போத் கேசஸ். And both of them have it, both of them get guna. Sarvatra yatra yatra it bhavati ubhayatra bhavati, yatra yatra gunaha ubhayatra, evam sandhihi api samanaha, because it is the same letter. Ityevam rupani sarvatra samanani bhavanti. So we will just take a quick look, or rather a recap at what will happen for the different kinds of dhatus. கத வர்க்கத்வயே துமுன் பிரத்யந்தஸ்ய விஷயே ஏதேவ படிதம். அத்ய புனஃ படாமஹ, தேன தார்ட்யம் பவதி ஞானே. சேட் தாதுனாம் தவ்ய பிரத்யந்த ரூபாணி கதம் பவந்தி? இகந்தானாம் குணஹ பவதி. ஶ்ரீ இதவ்ய, சோ தவ்ய இத்யஸ்தி சேட் தாதுஹ அதஹ இடாகமஹ. சோ ஶ்ரே இதவ்ய, அயாதேஷே ஶ்ரயிதவ்யம், ஶ்ரீ ஶ்ரயிதவ்யம், ஷீ ஶயிதவ்யம், டி दयितव्यम्. सो इवर्णान्ताः धातवः तेषाम् अयि सो एकारः भवति, अयादेशः भवति. सो श्रयितव्यं शयितव्यम् इत्यादि रूपाणि. नु इतव्य, नो इतव्य, नवितव्य सो नवितव्यम्, भू भवितव्यम्, पू पवितव्यम्, सु सवितव्यम्. सो उवर्णान्तानां धातूनां गुणः अवादेशः भवति. ऋकारान्ताः जागृ इतव्य, जागरितव्यम्. ऋकारस्य गुणः अर् भवति. सो जागर् इतव्यम्. सो प्रायः सर्वेपि ऋकारान्ताः धातवः अनिट् धातवः कृ हृ इत्यादि. जागृ धातुः सेट् जागरितव्यम्. लघु इगुपधानां गुणः भवति लिख लेखितव्यम्. सो इकारस्य एकारः. मिल मेलितव्यम्. मुद मोदितव्यम्. शुच शोचितव्यम्. नृत नर्तितव्यम्. वृध वर्धितव्यम् इत्येवं लघु इगुपधानाम् इकारस्य एकारः, उकारस्य ओकारः, ऋकारस्य अर् इति गुणः भवति. कदाचित् इट् इतः दीर्घः दृष्टः अस्माभिः. ऋकारान्तानां विकल्पेन दीर्घः भवति. सो तरितव्यं तरीतव्यम्, करितव्यं करीतव्यम्, वरितव्यं वरीतव्यम्. सो वृ धातोः तथा ऋकारान्तानां धातूनां विकल्पेन दीर्घः भवति. ग्रह धातोस्तु नित्यं दीर्घः भवति. ग्रहीतव्यम् इति रूपम्. सो इतः दीर्घः यथा तरितुं तरीतुं, वरितुं वरीतुम्, एवमेव अत्रापि भवति. ग्रहधातोस्तु दीर्घः. निजन्ताः सर्वेपि धातवः सेट् भवन्ति इति दृष्टम्. अयितव्यम् इति भवति. सो द सेम् फार्म् एस् द तिङन्त. सो यु जस्ट् हेव् टु मेक् इट् इन्स्टेड् आफ् अयति यु हेव् टु मेक् इट् अयितव्यम्. सो कथयति कथयितव्यम्. चोरयति चोरयितव्यम्. क्षालयति क्षालयितव्यम्. पाठयति पाठयितव्यम्. सो इत्येवं निजन्ताः सर्वेपि सेटः अयितव्यम् इति अन्ते श्रूयते. सो दिस् इस् अबौट् द तव्य फार्म्स् फार् सेट् धातुस्. सो तैत्तिरीयोपनिषदि शिक्षावल्याम् आचार्यानुशासनम् इत्यस्ति. यः शिष्यः विद्याभ्यासं समाप्य गृहं प्रस्थितः तस्मै आचार्येण कानिचन वचनानि उच्यन्ते. सो इन्स्ट्रक्षन्स् टु द स्टूडेण्ट् आन् कम्प्लीटिङ्ग् द यु नो स्टडीस् एण्ड् वेन् ही इस् अबौट् टु गो बेक्. सो इट्स् अ वेरि फेमस् पोर्शन् फ्रम् द तैत्तिरीयोपनिषत्. सत्यान्न प्रमदितव्यम्, धर्मान्न प्रमदितव्यम्, कुशलान्न प्रमदितव्यम्. स्वाध्यायप्रवचनाभ्यां भूत्यै न प्रमदितव्यम्, स्वाध्यायान्न प्रमदितव्यम्, स्वाध्यायप्रवचनाभ्यां न प्रमदितव्यम्, देवपितृकार्याभ्यां न प्रमदितव्यम्. सो प्रमदितव्यम्. So, pramada is to deviate or to move away from something. So, satyat na pramaditavyam. So, do not deviate from truth. Dharmat na pramaditavyam. Do not deviate from dharma, what is righteous, correct. Kushalan na pramaditavyam. So, do not deviate from what will cause good, okay, that which is good. Bhutyai na pramaditavyam. You should not deviate for the sake of money. So, do not be corrupt. Swadhyaya pravachanabhyam na pramaditavyam. Should not neglect either swadhyaya or pravachana. So, both self-study and teaching it are both important. Deva pitrakarya abhyam. Deva karya and pitrakarya. स्वताभ्याम् न प्रमदितव्यम्। प्र उपसर्गपूर्वकः मद् धातुः, मदी इति धातुः, सो मद् प्रमादः कम्स् फ्रम् द सेम् धातु। सो दिस् प्रमदितव्यम् इस् तव्य प्रत्ययान्त वित् सेट्। सो तत्रैव अग्रे अस्ति यान्यनवद्यानि कर्माणि तानि सेवितव्यानि। सो सेवितव्यम्, सो सेवधातोः तत्रापि इडागमः अस्ति तव्यप्रत्ययान्तः। यानि अनवद्यानि कर्माणि, सो अनवद्यानि निर्दुष्टानि पापरहितानि दोषरहितानि कार्याणि तानि सेवितव्यानि। सो यु शुड् टेक् अप् ओन्ली दोस् एक्ट्स् विच् आर् नाट् अनवद्य, अवद्यं नाम पापम् अथवा दोषः, सो नाट् सिन्फुल्, विच् आर् रैटियस्, विच् आर् करेक्ट् इत्यर्थः। सो प्रमदितव्यं सेवितव्यम् इति उभयमपि सेट् धातोः इडागमे रूपं भवति। सो अभ्यासः उभयं कुर्मः, अनीयर् प्रत्ययान्तस्य तथा तव्यत् प्रत्ययान्तस्य, रिक्तस्थानं पूरणीयम्। सो असत्यं, सो वृज् इत्यस्ति, तस्य अनीयर् किं भवति, तव्यप्रत्ययान्तं किं भवति। राव् महोदय
हरि ओम्, श्रूयते वा?
श्रूयते, वदतु।
असत्यं वर्जनीयम्, असत्यं वर्जितव्यम्।
वर्जनीयं, वर्जितव्यं, सो लैस् शुड् बि अवाय्डेड्, शुड् बि गिवन् अप्।
दिवा न शयनीयं, दिवा न शायितव्यं,
शयितव्यं,
शयितव्यं,
शयनीयं, शयितव्यं। सो दिवा डे टैम्, ड्यूरिङ्ग् द डे टैम् न शयनीयं, न शयितव्यम्।
अर्धनम् न वाञ्छनीयम्, अर्धनम् न वाञ्छितव्यम्,
न वाञ्छनीयम्, न वाञ्छितव्यम्। सो द मनी आर् द वेल्त् आफ् अदर्स् शुड् नाट् बि डिसैर्ड्, वाञ्छति इस् टु डिसैर्, सो शुड् नाट् बि डिसैर्ड्। शैलजा भगिनि, यु हेव् म्यूटेड् युर् सेल्फ्, यु हेव् टु अन्म्यूट्।
उपरि स्वनामं
नाम
उपरि स्वनाम लेखनीयम्, उपरि स्वनाम लेखितव्यम्,
लेखनीयं, लेखितव्यम्। सो एट् द टाप् वन्स् नेम् शुड् बि रिटन् से ड्यूरिङ्ग् एन् एक्साम्। सो दे से स्वनाम लेखनीयं, लेखितव्यम्, सो वन्स् नेम् शुड् बि रिटन्।
मित्रैः सह मेलनीयं, मित्रैः सह मेलितव्यम्,
मेलनीयं, मेलितव्यम्।
संस्कृतेन एव भाषणीयं, संस्कृतेन एव भाषितव्यम्,
संस्कृतेन एव भाषणीयं, भाषितव्यम्। सो अनियर् प्रत्ययान्तः अपि उपयोक्तुं शक्यते, तव्यप्रत्ययान्तः अपि उपयोक्तुं शक्यते। सो इन् आल् केसेस् दे आर् यु नो सिनानिमस्। अत्र पुनः तव्यप्रत्ययान्तस्य रूपम् उपयुज्य वक्तव्यं, यथा नर्तनं करणीयम् इत्यस्ति, सो तव्यदन्तेन कथं भवति। So not for the dhatu itself, not for the kri. So Sharada Bhagini.
Sabhayam
न जस्ट आई मीन वाक्यम वदतु चिंता नास्ति रूपम प्रधानम नर्तितव्यम सो नर्तनम करणीयम इत्यस्य नर्तितव्यम सभायां नर्तितव्यम सम्यक्
निंदितव्यम
हां निंदनम करणीयम निंदितव्यम सो निंद धातुः तिङन्तं किं भवति किं भवति तिङन्तं किं तोलयति सम्यक् तोलयितव्यं सो टु वेय् आर् टु बेलेन्स् सो तोलयितव्यं सम्यक् धन्यवादः मलकोण्डय्य महोदय
हरि ओम् तरणं करणीयं तरयितव्यं
तरितव्यं तृ धातु
तरितव्यं तरितव्यं
तरितव्यं तरीतव्यम् इति रूपद्वयं
गणनं करणीयं गणितव्यं
गणयति
गणयितव्यं
गणयितव्यं सो चुरादि गणे गणयितव्यं
परीक्षणं करणीयं परीक्षयितव्यं
परीक्षते इत्येव
परीक्षते परीक्षितव्यं
परीक्षितव्यं सम्यक् परीक्षितव्यं सो ओन्ली फार् निजन्तस् सो एज़् यू हेव् सीन् निच् इति प्रत्ययः दशमगणस्य धातूनां स्वार्थे निच् भवति सो दे कम्पल्सरिलि हाव् द निच् अन्येषां धातूनां प्रेरणार्थे निच् भवति यथा पठति पाठयति गच्छति गमयति उभयविधमपि यत्र निजन्तस्य प्रयोगः तत्र अयितव्यम् इति भवति सो तोलयितव्यम् इति निजन्तमेव तोलयति इत्येव धातुः सः दशमगणस्य धातुः एवं गणयति गणयितव्यम् ओके सो यदा तिङन्तस्य किञ्चित् स्मरणं क्रियते तदा सुलभं भवति अग्रे पश्यामः अनिट् धातूनां तव्यप्रत्ययान्तानि रूपाणि कथं भवन्ति इति सो आकारान्तानां तथा एजन्तानां धातूनाम् आतव्यम् इत्येव भवति आकारान्तानां जस्ट् वि एड् द प्रत्यय सो दा दातव्यं ज्ञा ज्ञातव्यम् सो एजन्तानां धातूनामपि आकारः भवति सो गै गातव्यं त्रै त्रातव्यं ह्वे ह्वातव्यं सो सर्वत्रापि आकारः श्रूयते इगन्तानां धातूनां गुणः भवति सो जि जेतव्यं नी नेतव्यं श्रु श्रोतव्यं कृ कर्तव्यं हृ हर्तव्यं सो इकारस्य एकारः उकारस्य ओकारः ऋकारस्य अर् इति गुणः भवति दातव्यमिति यद्दानं दीयते नुपकारिणे देशे काले च पात्रे च तद्दानं सात्विकं स्मृतम् इति भगवद्गीतायां सप्तदशाध्याये दानं त्रिविधं भवति सात्विकं राजसिकं तामसिकम् इति तत्र सात्विकं दानं कीदृशं दातव्यम् इति यद्दानं दीयते सो इट् इस् गिवन् जस्ट् बिकास् इट् मस्ट् बि गिवन् फार् नो अदर् पर्पस् ओके सो दातव्यम् इति यद्दानं दीयते अनुपकारिणे अस्माकं तेन कोऽपि उपकारः भवेत् तेन कारणेन दीयते चेत् तत् सात्विकं न सो अनुपकारिणे यः किमपि उपकारं कर्तुं न शक्नोति अथवा उपकारः अस्माकं नापेक्षितः तादृशाय देशे काले पात्रे देशः सम्यक् भवेत् यत्र कुत्रापि दानं न करणीयं कालः उत्तमः कालः भवेत् सो एट द राइट टाइम एट द राइट प्लेस पात्रे टू द राइट पर्सन यः दानं अर्हति सो यः यस्य समीपे तद्वस्तु अस्ति तस्मै दीयते चेत् प्रयोजनं नास्ति यस्य अपेक्षा अस्ति अर्हता दानस्वीकरणस्य अर्हता अस्ति सो ही हू विल नॉट मिसयूज इट ही हू डिजर्व्स इट सो दट इज कॉल्ड पात्रम सो देशे काले च पात्रे च तद्दानं सात्विकं स्मृतं सो सच अदान इज कॉल्ड सात्विक सो द फर्स्ट क्वालिफिकेशन इज दातव्यम इति यद्दानम इट इज गिवन for the purpose of giving there is no other hidden agenda like receiving some favor or any other thing so datavyam iti yaddanam diyate anupakarine deshe kale cha patre cha taddanam satvikam smritam name partha asti kartavyam trishu lokeshu kinchana nanavaptam avaptavyam vartayeva cha karmani सो पुनः तृतीयाध्याये कृष्णः कथयति पार्थ मे नाम मम त्रिषु लोकेषु किञ्चन कर्तव्यं नास्ति सो देर् इस् नथिङ्ग् दट् ऐ हेव् टु डू सो दट् ऐ मस्ट् डू सो मया कर्तव्यमेव इति किमपि नास्ति न अनवाप्तम् अवाप्तव्यं मया किमपि न प्राप्तं प्राप्तव्यमस्ति इति तु नास्ति वयं किमर्थं कार्यं कुर्मः किमपि प्राप्तुम् So we work so that we get something because of something. So I don't have anything that I need and there is nothing that I need to do in the world. Tathapi vartayeva cha karmani. Karmani varteyeva. But I still do karma. So this is the case where he is talking about karma yoga. That you should not give up your actions. So joshayet sarva karmani vidvan yukta samacharan. So... real jnani, he should not confuse others by giving up his works. Well, so whether we need to do work or not, we should keep doing it with the proper attitude. Okay? So, name partha asti kartavyam. So, kr kartavyam. Aap aaptavyam. Okay? Nanavaptam avaptavyam. Ava iti upasargaha. Aap iti dhatuhu. Avaptavyam varta eva cha karmani. सो अन्यधातूनां पश्यामः तत्तु अजन्तधातूनां अजन्त अनिट् धातूनां तव्यदन्तानि रूपाणि दृष्टानि हलन्तधातूनां किं भवति सन्धिः भवति अद् अत्तव्यम् पच् पक्तव्यम् त्यज् त्यक्तव्यम् गम् गन्तव्यम् नम् नन्तव्यम् इत्येवं सन्धिः भवति तत्रैव यदि गुणस्य अवकाशः अस्ति तर्हि गुणः सन्धिः इति उभयं भवति सो उपधायाम् इकारः उकारः ऋकारो वा अस्ति चेत् गुणः भवति सो छिद् छेत्तव्यं सो छिद् बिकम्स् छेदतव्यं सन्धौ छेत्तव्यम् मुच् मोक्तव्यम् भुज भोक्तव्यम् सो चवर्गधातूनां ककारः भवति द्विष द्वेष्टव्यम् विष वेष्टव्यम् सो षकारः षकारो वा अस्ति चेत् अत्र षकारः ष्टुत्वं भवति सो द्वेष्टव्यम् वेष्टव्यम् प्रवेष्टव्यम् इत्यादि अनुगन्तुम् सताम् वर्त्म कृत्स्नम् यदि न शक्यते स्वल्पमप्यनुगन्तव्यम् मार्गस्थो नावसीदति इति सुभाषितम् सो यु सी दट् यु हव् तुमुन् एण्ड् तव्य उभयमपि अस्ति अनुगन्तुम् इत्यस्य सताम् वर्त्म सज्जनानाम् मार्गः कृत्स्नम् अनुगन्तुम् यदि न शक्यते सो पूर्णतया अनुसर्तुम् न शक्नुमः चेत् So, if it is not possible to follow the noble way completely, sajjanaya aha yadyad kurvanti tat sarvam api kartum yadyapi na shaknumaha tathapi svalpam api anugantavyam யாவத் சக்யதே தாவத்வா அனுகமனம் அனுசரணம் கர்த்தவ்யம். ராமாயணம் பட்டாமஹ ராமஸ்ய தாவந்த குணாஹ உச்சியந்தே தத் சர்வம் அஸ்மாபிஹி கர்த்தும் சக்யதே வா ந சக்யேத ததாபி ஸ்வல்பமபி அனுகந்தவ்யம். சோ யூ ஷுட் நாட் கிவ் அப் ஜஸ்ட் பிகாஸ் இட் இஸ் டூ ஐடியல். ஸ்வல்பமபி அனுகந்தவ்யம் யாவத் சக்யதே தாவத்வா அனுசரணம் கர்த்தவ்யம். கிமர்த்தம் மார்கஸ்தஹ நாவசீததி. மார்கஸ்தஹ ஹி ஹூ இஸ் ஆன் த ரைட் பாத் ந அவசீததி நாஷம் ந ப்ராப்னோதி. தஸ்மின் மார்கே கச்சாமஹ லக்ஷ்ய ப்ராப்திஹி விலம்பேன பவேத் வேகேன வா பவேத் நாஷஸ்து ந பவதி. உத்தம மார்கே சமீசீன மார்கே யஹ அஸ்தி சஹ ந நஷ்யதி. So if the path itself is wrong, then you are lost. So if you are traveling on the right path, someday you will reach the target. So anugantum, anugachyati is to follow. So sajjanah agre gachyanti asmamihi anugamanam kriyate. So you have to follow. Anugantum, kritsnam anugantum yadi na shakyate, svalpam api anugantavyam. So atra tavya pratyaha gam dhatuhu. கம தவ்ய கந்தவ்ய அப்யாசஹ உதாரணானுகுணம் வதத. அர்த்தாத் தா தாது அஸ்தி தாதும் யோக்யம் தாதவ்யம். சோ துமுன் பிரத்யயஹ அஸ்தி தாதும் யோக்யம் தட் விச் டிசர்வ்ஸ் டு பி கிவன். தடேவ தவ்ய பிரத்யாந்தேனாபி வக்தும் சக்யதே தாதவ்யம். சோ அஸ் வி ஹேவ் சீன் தவ்ய கேன் ஆல்சோ பி used in the sense of yogya, that which is fit to be given. Ityarthepi prayogaha kriyate. So vidyarthaha asti arhaarthaha athava yogyarthaha api asti. Okay. சோ அத்த எக பிரஷ்ன கிருத்னம் இத்தியஸ்ய கஹ அர்த்தஹ. கிருத்னம் பூர்ணம் சம்பூர்ணம் இத்யர்த்தஹ. இட் மீன்ஸ் கம்ப்ளீட்லி ஃபுல்லி. சோ கிருத்னம் வியாக்கரணம் ப்ரோக்தம் ஏனாட்சர சமாம்நாய அதிகம்ய மகேஸ்வராத் கிருத்னம் வியாக்கரணம் ப்ரோக்தம் தஸ்மை பாணினயே நமஹ இதி ஸ்லோக. சோ கிருத்னம் வியாக்கரணம் சோ த என்டயர் வியாக்கரண. So, kritsnam anugantum. So, to follow it fully or completely. So, ityarthaha, it should be a unadi pratyayanta. So, it just means completely, fully, without leaving anything. Ityarthaha. So, evam tumun tavya iti ubhayohu prayogaha kartavyaha. So, bhuj ityasti. Mahadevan.
போக்தும்
யோக்யம் போக்தவ்யம். பக்தும் யோக்யம் பக்தவ்யம். சோ தட் விச் இஸ் ஃபிட் டு பி குக்ட்.
गातुं
योग्यं गातव्यं. सम्यक्. धन्यवादः. वेङ्कटेश्वरन् महोदय
सुप्रभातम्. நமத்து யோக்யம் நமிதவ்யம்.
அனிட் தாது
அனிட்
லைக் கம் நம்
நந்தும் யோக்யம் நந்தவ்யம்.
சம்யக். நந்தும் யோக்யம் நந்தவ்யம்.
ஸ்தோதும் யோக்யம் நந்தவ்யம்.
ஸ்தோதும் யோக்யம் ஸ்தோதவ்யம். So be praised.
விது भेतुं योग्यं भेतव्यं
भेतव्यं भेतुं योग्यं भेतव्यं
भेतुं
योग्यं भेद धन्यवादः सो टु बी ब्रोकन भेतुं योग्यं भेतव्यं श्रीनिवास महोदय You have muted yourself. You have to unmute. Ah.
Vaktum yogyam vaktavyam.
Vaktum yogyam vaktavyam.
Na janave.
दा इत्यस्य किं भवति तत्रैव अस्ति मा समातुं
मातुं योग्यं मातव्यं
मातव्यं सो मातुं योग्यं टु बि मेजर्ड् दट् विच् इस् फिट् टु बि मेजर्ड् मातव्यं सम्यक् धन्यवादः
धन्यवादः
पाल् ऐ वाण्ट् टु टेक् दिस् Cannot hear you. Paul? Not able to hear you.
I don't know why.
Yes, I can hear you now.
You can hear me now? You can hear me now?
Yeah.
Okay. So, for some reason, okay. Chetum yogyam chetavyam.
Chetum yogyam chetavyam. So, to collect or to pluck.
Right. Jatum yogyam.
Dhyatum yogyam dhyatavyam. So that which is fit to be meditated upon. So so yogyarthe tumunaha prayogaha. So in the whole sense we can also use tavya. Okay. So anyesham keshanchana anit dhatunam tavya rupani ye mahapranantaha अर्थात् अन्ते धकारः भकारो वा अस्ति बन्ध बन्धव्यम् सो पूर्वमपि दृष्टं बन्धुम् इति भवति तकारस्य स्थाने धकारः भवति सो पूर्व धकारः धातोः महाप्राणस्य स्थाने अल्पप्राणः भवति सो यु हाव् बन्ध धव्य बन्धव्यम् सो लभ लब्धव्यम् सो भ बिकम्स् ब एण्ड् यु हाव् द ध लब्धव्यम् सिध सेद्धव्यम् सो गुणः भवति पुनः धव्य रुध रोद्धव्यम् इति सो यथा तुमुनि बन्धुं लब्धुं सेद्धुं रोद्धुम् एवम् अत्रापि युध योद्धव्यम् केषाञ्चन धातूनां विशिष्टरूपाणि भवन्ति यथा दृश द्रष्टव्यम् सो ऋकारः उपधायाम् अस्ति चेत् यु हाव् द र सो स्पृश स्प्रष्टव्यम् कृश क्रष्टव्यम् इत्यादि वः वोढव्यम् सो हकारः अस्ति चेत् ढव्य इति भवति सो रुः रोढव्यम् सः सोढव्यम् इत्यादि दुः दोग्धव्यम् एवं दः दग्धव्यम् सो प्रच्छ प्रष्टव्यम् सृज स्रष्टव्यम् यज यष्टव्यम् इत्यादि कदाचित् सन्धिः देर् इस् नथिङ्ग् स्पेशल् अबौट् दिस् देर् आर् सम् स्पेशल् सन्धीस् सो वी जस्ट् कलेक्टेड् देम् एस् अ पाटर्न् सो द सेम् थिङ्ग् एस् इन् तुमुन् तथा भवति पुनः भगवद्गीतायाः कांश्चन प्रयोगान् पश्यामः कर्मणो ह्यपि बोद्धव्यम् बोद्धव्यम् च विकर्मणः अकर्मणश्च बोद्धव्यम् गहना कर्मणो गतिः बुध धातुः बोद्धव्यम् इति भवति. सो ज्ञातव्यम् इत्यर्थः, शुड् बी नोन् और् शुड् बी अण्डर्स्टुड्. सो वाट् शुड् बी नो, कर्मणः बोद्धव्यम्, शुड् अण्डर्स्टाण्ड् वाट् इस् कर्म. बोद्धव्यं च विकर्मणः, वाट् इस् द ओपोजिट् आफ् कर्म. ओके, सो इदर् नाट् आक्टिङ्ग् और् आक्टिङ्ग् द राङ्ग् वे. ऐ मीन् विकर्म इस् विरुद्धं कर्म, सो द राङ्ग् आक्षन्स्. अकर्मणश्च बोद्धव्यम् एण्ड् अकर्म इस् नो आक्षन्. यु हेव् टु नो वाट् इस् आक्षन्, वाट् इस् राङ्ग् आक्षन् एण्ड् वाट् आर् आल्सो यु नो वाट् इस् इनाक्षन्. गहना कर्मणो गतिः. सो द knowledge of karma is indeed complicated or dense. So bodhavyam iti rupam, budh tavya bodhavya, to be known, to be understood. So atra api asti samanaha shlokah, so very similar to the one which we saw, datavyam iti yaddanam diyate anupakarine. So very similar, aphalakankshibhir yajnah vidhidrishto ya ijyate यष्टव्यमेवेति मनः समाधाय स सात्विकः. यष्टव्यम् यज् धातोः यष्टव्यम् इति रूपम्. सात्विकः यज्ञः कीदृशः भवति? अफलाकाङ्क्षिभिः. सो तत्रापि फलाकाङ्क्षा न भवेत्. सो स्वर्गार्थं क्रियते, पुत्रार्थं क्रियते, धनार्थं क्रियते इत्यादि आशां विना अफलाकाङ्क्षिभिः विधिदृष्टः, विधिपूर्वकं कर्तव्यं, न तु यथेच्छम्. यष्टव्यमेवेति मनःसमाधाय, एण्ड् फार् द रीजन् दट् यज्ञ शुड् बि पर्फार्म्ड्. सो इट् इस् गुड् टु बि पर्फार्म्ड्, यज्ञ डिसर्व्स् टु बि पर्फार्म्ड् इति. सः सात्विकः यज्ञः. सो यष्टव्यम् इति यज् धातोः तव्यप्रत्ययान्तं रूपम्. So, atra abhyasaha, riktasthanam puraniyam. So, selecting the correct tavya pratyayanta from this list. Okay. So, so Aditya.
Gurave namaha. Kshiram. दोग्धव्यम्.
क्षीरं दोग्धव्यम्, सो मस्ट् बी मिल्क्ड्.
क्षेत्रं क्रष्टव्यम्.
क्षेत्रं क्रष्टव्यम्, सो द फील्ड् मस्ट् बी प्लोड्.
धनं लब्धव्यम्.
लब्धव्यम्, सो money must be had or attained. धन्यवादः. श्रीधर मोहन.
नमस्ते माननीय. तत्त्वं बोद्धव्यम्.
तत्त्वं बोद्धव्यम्, सो द ट्रुथ् और द रियालिटी मस्ट बी अंडरस्टूड. कार्यम्.
कार्यम् साधव्यम्.
साधव्यम्, साधनीयम् इत्येव अर्थः. सो मै वर्क् द टास्क् मस्ट् बी अचीव्ड्.
कष्टं सोढव्यम्.
कष्टं सोढव्यम्, सो डिफिकल्टि मस्ट् बी टालरेटेड् और् एक्स्पीरियन्स्ड्. सोढव्यम्, धन्यवादः. सो दोग्धव्यम्, क्रष्टव्यम्, लब्धव्यम्, बोद्धव्यम्, साधव्यम्, सोढव्यम् इति तव्यप्रत्ययान्तानि रूपाणि. सो अन्ये केचन धातवः सन्ति वेट् धातवः, यत्र इडागमः विकल्पेन भवति. सो तत्र रूपद्वयम्. सो इडागमस्य हितम् एकं रूपं, तद्विना एकं. सो क्लिद् क्लिद् क्लेदितव्यं, क्लेत्तव्यं. सो क्लिद इस् टु वेट् संथिङ्ग्. सो इडागमे गुणः भवति क्लेदितव्यम्. इतः अभावे गुणः सन्धिः, क्लेत्तव्यम्. सो एषितव्यम्, एष्टव्यम्, टु बि डिसैर्ड्. लोभितव्यं, लोब्धव्यम्, to be greedy for something. Kshamitavyam, kshantavyam, to forgive. Gahitavyam, gadhavyam. So, gahate is to enter or plunge into water. So, takshitavyam, tashtavyam. So, to peel or to scrape, to cut, ityadi. Gopitavyam, goptavyam, to hide. Kalpitavyam, klaptavyam, to create something. Tarpitavyam, traptavyam, to satisfy. Darpitavyam, draptavyam, to be arrogant. Drohitavyam, drogdhavyam, to harm somebody. Sahitavyam, sodhavyam. So, sahadhatoho, idagamaha vikalpena bhavati. So, sahitavyam, sodhavyam, iti rupadvayam. Okay. So, all these are similar to tumul. So, atra kashchana prashnaha, vid dhatoho katham rupam bhavati iti. Vid dhatuhu satvaraha vid dhatavah santi vastataha. Vidajnane iti ekah dhatuhu vetti is to know. Evam vida sattayam, so vidyate to be asti ityarthe. Vidl labhe iti dhatu asti, vinte is to vindati is prapnoti ityarthe. Vida vicharane ityasti, vinte iti rupam, it is to think of something. So of them two are anit dhatus and two are set dhatus. Yadi set dhatu ho tarhi veditavyam iti bhavati. Gunaha idagamaha veditavyam. Yadi anit dhatu ho tarhi vettavyam iti bhavati. So viditavya vettavya iti bhavati. So gitaya masti prayoga. Tvam aksharam paramam veditavyam. So tvam aksharam paramam veditavyam. You are the one who is to be known the most. Veditavyam. Jnane ityarthaha tatra. Sanyatra yadi anit dhatuhu tarhi vettavyam. Bhavitavyam ityarthe. Vidyate ityasya vettavyam iti bhavati. Okay. So, ante udaharanadvayam pashyamaha. Ekam Ramayanat. Kishkindha kande Sugrivaha Ramam prichati. So, Sugrivaha vasataha rajyam prapya tatra rajya sukhe nirmagnaha. Sitanveshane manaha nadadhati iti lakshmanaha atyantam kruddhaha. Tataha sugrivaha agatya kim kim krutam vanarasena sarva akarita ityadi uktva kshamam prarthayate. Yadi kinchid atikrantam vishvasat pranayena va preshyasya kshamitavyam me nakashchin aparadhyati iti sugrivasya kathanam. So yadi kinchid atikrantam, so if I have crossed some line. Kinchirati krantam vishwasat pranayenava, because of the trust in you or because of the friendship. It was not due to any other attitude. It was not because I was ignoring you or anything. It was just because of the affection towards you. Preshyasya me, preshyaha nama dasaha athava sevakaha kshamitavyam, so it must be forgiven. Nakashchin aparadhyati. So, nakashchin naparadhyati keeps repeating in many places in the Ramayana. Kashchit na aparadhyati. There is nobody who will not err at some point. So, sitaya apikadachir uchyate rakshasinam vishaye. So, nakashchin naparadhyati. So, there is nobody who will not err. So, please forgive my errors. Preshyasya kshamitavyam. So, kshamadhatuhu wait. It sahitam rupam kshamitavyam iti bhavati. Vidheya jnanena dravina virahena alasataya vidheya shakyatvat tavacharanayorya chutirabhut tadetat kshantavyam janani sakalodharini shive kuputro jayeta kvachidapi kumata nabhavati. Devyaparadhakshamapanastotram ityasti. So, it is a pretty famous stotra. So, all lines end with this. kuputro jayeta kvachidapi kumata na bhavati. So the son might be evil or this, kintu kumata na bhavati. So you are the mother. So the mother is never bad. So she is always affectionate towards the children and always. Just excuse me one moment, please. Shantavyaha Vilambaha. Sorry. My daughter got up, so I just have to look at her. Tadetat kshantavyam janani sakalodharini shive. So, hey janani shive, devyaha idam stotram. Tadetat kshantavyam. So, please forgive this. Kim tava charanayoho ya chyutihi abhut. So, bhavatyaha charanayoho sevayam ya chyutihi. So that I could not worship your feet. For what reason? Videhe agyanena. So sometimes we do it because we don't know what to do. Kim karaniyam iti nagyayate. Dravina virahena. Kadajit dhanam nasti iti karanena nakriyate. Alasataya. Alasataya. So kadajit alasyam bhavatyeva. Videhe ashakyatvat. अथवा कदाचित् प्रयत्नं कृत्वा अपि कर्तुं न शक्यते सो एतैः कारणैः सो फॉर व्हाटएवर द रीजन आई वाज अनेबल टू वर्शिप यू एज आई शुड हैव डन विधेह अज्ञानेन द्रविण विरहेण अलसतया विधेय अशक्यत्वात् तव चरणयोः या च्युतिः अभूत् सो भवत्याः पादसेवायाः Hanihi, so I could not lopaha yaha jataha. Tade tat kshantavyam. So tat kshantavyam janani sakalodharini shive. Kimartham kuputro jayeta. So I may not be a deserving son or the daughter because of these faults. Kvachidapi kumata nabhavati. So a mother cannot be bad. So she has to take care of the child. Iti tatra kshantavyam. So purvam ramayanasya prayoge kshamitavyam iti ita sahitaha prayogaha drishtaha atra anit prayogaha kshantavyam. So kshamadhatoho kshamitavyam kshantavyam iti rupadvayam vidyate. Okay. So, atra prashna dvayam vidyate, kshamapanam va kshamapanam va iti ubhayam bhavitum arhati, tatra nijantat anatvam vikalpyate. So, kshamapanam kshamapanam iti ubhayam api asti. So, there is a sixth case, shashti vibhaktihi asti iti, arthat me kshamitavyam iti. So, Mama yad atikrantam. So my faults. Preshyasya me yad atikrantam. So that which I yad atikrantam tat kshamitavyam. Iti abhinayaha. So that which was fault. That which was at fault. That, but that which was wrong. That should be forgiven. So whose mine? So preshyasya kshamitavyam. Bhavitum arahat. So it is not forgive me, it is forgive that which I did wrong. So Sanyaha Prashnaha, are weight forms created to assist poets in fulfilling Chandas rules? Well, not necessarily. I mean, if it is meant to assist, then, I mean, it would be easier if everything was weight. So we could use it as required. No, it is just prayogaha. Kadachit ubhayathapi prayogaha drishyate. Te dhatavaha vet iti uchyante. Kutrapi gamitavyam iti prayogaha na drishyate. Gantavyam ittyeva. Ataha, it is just based on the prayoga. So those in where we find both kinds of forms, they are vet. In some cases, we don't find the forms. Okay. So chandas cannot be a reason for having optional forms. So it's up to the poets to choose forms which will fit their chandas. So they are lucky if they have such options. I mean, it is nice to have options, but they don't have the options always. So, adya etavata samapayamaha. Anya prashnaha santi chet prachantu. You can also raise your hands if you have questions. No questions? Okay. Samapayamaha. Gurureva gatirgurumeva bhaje gurunaiva sahasminamo gurave na guroh paramam shishurasmi gurur matirasti gurau mumapahi guroh.